एकविंशोऽध्यायः कुम्भकारो विंशति कुम्भम् अद्य करिष्यति पञ्चविंशतिं च शः कर्ता। कलियुगे द्वात्रिंशदधिकं चतुर्लक्षं वर्षाणां गण्यते। अधुना षोडशाधिकशताधिकपञ्चसहस्रतमं कलियुगस्य वर्षं वर्तते। सुखिना भूयास्तां भदं च दृश्यास्ताम्। यदि वने फलान्यलप्स्यथा आहारमपक्ष्यम्। कति वर्षाणि भवन् व्याकरणम् अधीता? एके सप्तविंशतिम् अन्येष्टाविंशतिं नक्षत्राणां गणयन्ति। पिताश्वो ग्रामं गन्ता त्रयस्त्रिंशदश्वानां क्रेता। यदस्मिन् ग्रामे गुरुरवत्स द्वयं व्याकरणम् अतीष्यामहे।